त्वदीयम् श्रेष्ठोऽसि यः क्रतुभुजां पतिरग्नियानां श्रेष्ठ श्रुतोऽसि भगवन् अविशेषतस्त्वम् मात्रेषु कृच्छ्रपठितेषु च सामगाना यत्र तयो सहूतिः आह्वानमत्र भवत पृथगेव दृष्टम् यत्प्रातरग्निमिति सूक्तवेदः पठन्ति अज्ञादिभिस्तव महेश्वर कूतिशङ्का अपि अनुषङ्गयोग्यम् मन्त्रक्रियापदमपास्य पदान्तरेण त्वन्मावयनुतपदेन विनतिरितिम् न्यासीकृतं वसुबलात् अमरैरवाप्तुम् रुदितवानिति रुद्रमग्निम् रुद्रास्तवत् उद्भवतया मारुतो गणान् वा रुद्रावणेन च भवन्तमवैमि रुद्रम् पदम् आरुणकेतुक उक्तं तच्छब्दमीश्वर तदीयम् अपि स्मरन्ति यत्तत्प्रदेशगत रुद्रपद अवकाशे यज्ञस्य शब्दम् अनुशुश्रुम सामगेभ्यः संताप्य रोदयितरि प्रसभों जनाना आहुर्ज्वरेऽपि विषमे क्षण रुद्रशब्दम् रौद्रं च तत्प्रकृतिकं प्रतिरूपकम् शब्दकल्पम् सन्त्येव तद्धितपदप्रतिरूपकाणि भोरेणि भागवत सात्वत सन्निभानि स्यात्तादृगेव भगवान् इति शब्दरूपम् षाड्गुण्यहेतुकमपि त्वत्कोपैति न अन्यम् ऐश्वर्यमग्र्यम् अनुपाधिमति च लक्ष्मी ज्ञानं च वीर्य यशसि च विरागता च एते गुणा षडपि ते भगसंज्ञयोक्ता सन्तीत्यनेन भगवन् भगवानसि त्वम् ऐश्वर्यमीश्वरपद श्रुतिरुग्रशब्दो वीर्यं यशशिवपदं च तवा विधत्ते सर्वज्ञकामरिपुशब्द समर्थितौ च सार्वज्ञरागविरगौ भवत विरज्यतस्ते श्रेष्ठस्तया त्वमसि दाशतयेभिरोक्तः लब्धुं श्रियं जनिमचारु विचित्ररूपम् अभ्यर्चितं तव मरोद्भिरुदाहरन्ति क्षमाधृतिरधिष्ठितिरात्मबोधः सृष्टिर्विरागतपसि मतिरीश्वरत्वम् न त्वद्वियन्ति न कदाचिदपैति धर्मः किन्तन्न यद्भवति ते गुणसम्मतेषु नैवेश्वरान्न यशसा महतो न वीरान् न श्रीमत क्षितिपतीनपि सार्वभौमा अन्यादृशानपि महेश्वर वीतरागा प्रज्ञावतो भगवत प्रवदन्ति वृद्धा अथर्वणामदनशासन निब्रुवाणाः नामानि नाम भगवान् इति ते निराहुः अत्याश्रमोपनिषदाः भगेश्वरम् भूषन्ति पूज्यम् पूजातमुष्टु हिवता विहिता महेशमन्त्रेण वा मनसकाय निबन्धनाते सर्वाभिरप्युपनिषद्भिरुपा सनोक्ता नारायणोपनिषदं परिभावयामः